प्रियश्रोतारः नमस्कारः। प्रतिसप्ताहं प्रसार्यमाणस्य संस्कृत साप्ताहिकी इति कार्यक्रमस्य नवीनम् अंकम् आदाय अद्य भवतां भवतीनाञ्च मनोरञ्जनाय उपस्थितोऽहं कार्यक्रम प्रस्तोता पुरुषोत्तम शर्मा। सुहृद्वराः श्रोतारः, अद्यतने कार्यक्रमे सर्वादौ सुभाषित प्रभागे चाणक्यनीतेः स्वभाव विषयकं सुभाषितं प्रस्तौति मम सहयोगिनी निधिः तिवारी। शृणुमस्तावत् सुभाषितम्।
प्रलये भिन्न मर्यादा भवन्ति किल सागरा, सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः।
सहृदयाः श्रोतारः, विपुलं ज्ञानवैभवं सन्निहितमस्ति संस्कृतजगत्। संस्कृतज्ञानस्य विस्ताराय समारब्धः एतत् कार्यक्रमः संस्कृतसाहित्ये विद्यमानानि ज्ञानरत्नानि अस्माकं पुरतो उपस्थापयति। यथोक्तं काव्येषु नाटकं रम्यं, तत्र रम्या शकुन्तला, तत्रापि चतुर्थोऽङ्कः, तत्र श्लोकचतुष्टयम्। श्रोतारः, अत्र प्रसङ्गप्रभागे अस्माकं सहयोगिनी निधिः झा अभिज्ञानशाकुन्तलनाटकात् प्रस्तौति श्लोकचतुष्टयात् प्रसङ्गम्।
यास्यति अद्य शकुन्तलेति हृदयम् संस्पृष्टमुत्कण्ठया, कण्ठः स्तम्भितवाष्पवृत्त कलुषः, चिन्ता जडं दर्शनम्, वैक्लव्यं मम तावदीदृशमिदम्, स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नूतनया, विश्लेष दुःखैर्न वै।
मित्राणि, अहोरात्रं वयम् अधिविश्वं प्रवर्तमानान् घटनाक्रमान् विभिन्नासु भाषासु शृणुमः। साप्ताहिकं विवरणं साप्ताहिक्यो जगद्वार्ताः प्रस्तौति मम सहयोगिनी सुषमा कुमारी।
प्रधानमन्त्रिणा नरेन्द्र मोदिना राजस्थाने बीकानेरे 26,00,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000,000, मार्ग विद्युत जल नवीन नवीकरणीय ऊर्जा क्षेत्र संबद्ध परियोजनाः समाविष्टाः सन्ति। प्रधानमंत्री अशेष देशे त्रयधिक शतानि अमृत रेल सत्राणाम् उद्घाटनं विहितम्। बीकानेर एक्सप्रेस रेल यानम् च प्रारब्धम्। बीकानेरे पालयानां जलसभा एका अपि संबोधिता। तत्र प्रधानमंत्रिणा अष्ट रेल सत्राणि उद्घाटितानि। पाकिस्तान समर्थित आतंकवादं दृष्टिपथं आनेतुं भारतस्य वैश्विक अभियानं प्रारब्धम्। महाराष्ट्रीय प्रशासनेन बहुविध अनुप्रयोगाधारित कैब इति सेवानां कृते नीतिरेखा घोषिता। लक्ष्यभेद प्रतियोगितायां कनक क्रीडिका जर्मनी देशे कनिष्ठ विश्व चषक प्रतियोगितायां भारताय प्रथम स्वर्ण पदकम् अर्जितम्।
श्रुतम् अस्माभिः साप्ताहिकम् वृत्तजातम्। ज्ञान विज्ञान परिपूर्णमस्ति संस्कृतम् वाङ्मयम्। संस्कृत समाराधकानाम् विदुषाम् महता परिश्रमेण ग्रन्थेषु निगूढम् ज्ञानम् आधुनिके कालेऽपि न हि केवलम् जीवति प्रत्युत तथैव उपयोगित्वेन ग्राह्यम् च वर्तते। अस्यामेव विद्वत्परम्परायाम् सम्प्रति कार्यक्रमस्य ज्ञान विज्ञानाख्ये अग्रिमे अनुबन्धे डॉक्टर मधुबाला सिंहः व्याकरण शास्त्र संबद्धेन निज ज्ञान प्रकर्षेण अस्मान् उपकरिष्यति। साक्षात्कार सपर्यायै उपस्थितः मम सहयोगी सुरेश चंद्र शर्मा।
येनाक्षर समाम्नाय मधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः। प्रियाः सुरभारती समुपासकाः श्रोतारः, अतीव हर्षस्य विषयः यत् अद्य आकाशवाण्याम् अस्माभिः सह संवादाय समुपस्थिताः सन्ति दिल्ली विश्वविद्यालयान्तर्गतम् मिरांडा हाउस इति महाविद्यालये संस्कृत विभागे प्रोफेसर पदासीनाः डॉक्टर मधुबाला सिंह महोदयाः। महोदयानां हर्षातिरेकाभिनन्दनवचोभिः आकाशवाणी पक्षतः अहं सुरेश चन्द शर्मा हार्दिकम् अभिनन्दनम् स्वागतम् च वर्तामहे।
धन्यवाद महोदयाः, अहमपि अत्र आगत्य हर्षम् अनुभवामि।
महोदयाः, संवाद प्रभागस्य एतस्य प्रथमे अंशे प्रश्नः यत् व्याकरण इति शब्दस्य का व्युत्पत्तिः इति विषये अस्माकं श्रोतारः ज्ञातुमिच्छन्ति।
व्याकरणम् इति शब्दः वि आ उपसर्गपूर्वकात् क्री धातोः ल्युट् प्रत्ययेन निष्पन्नो भवति। व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेन इति व्याकरणम्। सामान्यरूपेण यत्र शब्दानां प्रकृतेः मूलशब्दस्य धातोः प्रत्ययस्य वा विवेचनं क्रियते तद् व्याकरणं कथ्यते।
शब्दविवेचनं नाम व्याकरणम् इति।
आम्, साधुशब्दानां शिष्टप्रयोगोचित शब्दानां ज्ञानं व्याकरणेन एव भवति। असाधुशब्दानां निराकरणमपि व्याकरणेन एव सम्भवति। न केवलं शुद्धोच्चारणम् अपि तु शब्दरचनायाः साधुमार्गमपि बोधयति व्याकरणं।
साधु शब्दयोः मध्ये भेदः व्याकरणेन भवति इति।
आम् इति। न केवलम् एतदेव, शब्दसंस्कारेण मनः संस्कृतं परिशुद्धं करोति व्याकरणं, तथा शब्दब्रह्मणा अपि ज्ञानं कारयति एतद्। अत एव कथयितं मुखं व्याकरणं स्मृतम्। प्राचीनकालात् आरभ्य अद्यावधि पर्यन्तं व्याकरणस्य अध्ययने अत्यधिकं बलं दत्तम् आसीत्। भवन्तः जानन्ति एव, कथितमपि अस्ति, यद्यपि बहुनाधीशे तथापि पाठपुत्र व्याकरणं स्वजनः स्वजनो मा भूत सकलं शकलं सकृत् शकृत् इति।
बहु समीचीनं महोदयाः। सम्प्रति प्रश्नः यत् व्याकरणस्य प्रयोजनं किम् अथवा व्याकरणस्य उद्देश्यं किम् कृपया विशदीकृत्य ज्ञापयन्तु।
बहु शोभनम् अस्ति एतत् प्रश्नम्। अत्र वयं जानीमः यत् प्रयोजनम् अनुद्दिश्य न मन्दोऽपि प्रवर्तते। अस्मिन् संसारे यत्किमपि अस्ति तद् न निष्प्रयोजनम्, सर्वस्य प्रयोजनं भवत्येव। एवमेव व्याकरणस्य प्रयोजनमपि अस्ति। आचार्य पतञ्जलिना महाभाष्ये व्याकरणस्य प्रयोजनम् इत्थं कथितम् अस्ति, रक्षोः आगम लघ्वः सन्देहः प्रयोजनम्, अर्थात् रक्षा ऊह
एतानि प्रयोजनानि सन्ति।
आम्, एतानि सर्वाणि प्रयोजनानि एव सन्ति, रक्षाः ऊह आगमः लघुः असन्देहः च इति। अहम् अत्र किञ्चित् विवेचनं कर्तुम् इच्छामि यद् सर्वप्रथमं प्रयोजनं मतं रक्षा। वेदानां रक्षार्थं व्याकरणस्य महती आवश्यकता वर्तते। व्याकरणस्य प्रधानम् उद्देश्यं भवति पदस्य वर्णस्य मात्रायाः च उचितं व्याकरण उच्चारणं कृत्वा वेदानां रक्षा। यो वर्णलोपस्य वर्णागमस्य वर्णविकारस्य विषये जानाति सा एव वेदानां रक्षां कर्तुं शक्नोति।
बहु समीचीनम्।
इतोपि द्वितीयं प्रयोजनम् अस्ति ऊह, यथा स्थानं विभक्ति परिवर्तनं वाच्ये परिवर्तनम् इत्यादि। अर्थात् सरलभाषायां कथयितुं शक्यते यद् प्रचलित शब्दानाम् आधारे नूतन शब्दानां कल्पना एव ऊह इति। एतद् व्याकरणेन विना असम्भवो वर्तते।
व्याकरणेन विना न सम्भवः।
आम्, असम्भवः एव। अत्र तृतीयं प्रयोजनम् अस्ति आगमः इति। ब्राह्मणाय वेदानाम् अध्ययनं तेषां षड् अङ्गैः सह अनिवार्यं मतम्। व्याकरणं वेदाङ्गस्य प्रमुखो अङ्गो वर्तते। चतुर्थं प्रयोजनम् अस्ति लघुः। व्याकरणमेव सा लघु उपायो अस्ति येन संस्कृतभाषायाः ज्ञानं सरलतया प्राप्यते। लाघवेन एव शब्दज्ञानम् अस्य प्रयोजनमिति।
लाघवमिति मुख्यमुद्दिश्यं वर्तते।
आम्, पञ्चमं प्रयोजनम् अस्ति असन्देहः। सन्देहस्य निवारणार्थं व्याकरणस्य अध्ययनम् अपेक्षितम्। तत्रापि वैदिकशब्दानां विषये यत्र सन्देहो भवति तत्र तस्य निवारणं व्याकरणेन एव भवति
सम्भवति।
उदाहरणस्वरूपं वेदे जनासः च रूपद्वयं प्राप्यते। यो व्याकरणं न जानाति सः जनासः इति रूपं दोषपूर्णं मन्यते, यतोहि जनासः रूपं वेदे एव प्राप्यते परन्तु रूपद्वयं शुद्धम्।
बहु समीचीनम् महोदयाः। संस्कृत व्याकरणशास्त्रे प्रमुखेषु वैयाकरणेषु श्रेष्ठतमः अन्यतमः पाणिनिः। श्रोतारः पाणिनि विषये तद् रचितानां ग्रन्थानां च विषये ज्ञातुमुत्सुकाः।
अस्तु, संस्कृत व्याकरणस्य इतिहासे आचार्ये पाणिनेः नाम अक्षुणं वर्तते। पाणिनेः व्याकरणं सर्वाङ्गपूर्णम् अस्ति इति वयं जानीमः एव। पाणिनेः पश्चात् तस्य वार्तिककाराः भाष्यकाराः व्याख्याकाराश्च व्याकरणजगति ख्यातिं लब्धवन्तः। वार्तिककारः कात्यायन, भाष्यकारः पतञ्जलिः च पाणिनेः नाम सुविख्यातम् अकुर्वन्। एतस्य व्याकरणस्य सुप्रसिद्धो नाम पाणिनी इति अस्ति।
पाणिनी व्याकरणम् इति कथ्यते।
आम्, पाणिनी व्याकरणम् इति कथ्यते। पाणिनः पुत्रः पाणिनी इति। अनेन व्युत्पत्त्यनुसारेण पाणिनेः पितुः नाम पाणिन् आसीत्, अतः एतस्य पुत्रः पाणिनी इति। पतञ्जलेः महाभाष्ये अपि पाणिनेः अन्य एकं नाम प्राप्यते, दाक्षीपुत्रः। एतेन ज्ञायते यद् एतस्य मातुः नाम दाक्षी
आसीत्,
अतः अयं दाक्षीपुत्रः सञ्जातः। पाणिनेः इतोऽपि एकः अन्यः नाम शालातुर्यः अस्ति, यस्य अर्थोऽस्ति यस्य पूर्वजाः शालातुर्ग्रामस्य निवासिनः आसन्। पुरावेत्तानुसारेण पेशावर इति स्थानस्य समीपं लाहूर इति ग्रामम् एव प्राचीनं शालातुरम्
आसीत्।
पाणिनेः रचनाविषये सर्वप्रथमम् अहं कथयितुम् इच्छामि यत् अष्टाध्यायी इति एका प्रसिद्धा रचना
वर्तते,
प्रमुखा। आम्, पाणिनेः सर्वोत्कृष्टा रचना अष्टाध्यायी एव अस्ति। इयं लौकिक संस्कृतस्य सर्वप्रथमं सर्वोत्कृष्टं व्याकरणं वर्तते, तथापि अत्र वैदिक व्याकरणम् अपि दत्तम्। अयं ग्रन्थः सूत्रपद्धत्यां लिखितः। अत्र पाणिनिः सूत्रकारः इति नाम्नः अपि ज्ञायते। अत्र सूत्रेषु एकवर्णस्य एकमात्रायाः च परिवर्तनमपि नैव कर्तुं शक्यते। अष्टाध्याय्याम् अष्टाध्यायाः, प्रत्येक अध्याये चत्वाराः पादाः सन्ति, प्रत्येकपादे सूत्राणां संख्या भिन्नाः सन्ति। सम्पूर्ण अष्टाध्याय्याम् सप्तनवत्यधिकनवशतोत्तरत्रिसहस्रं सूत्राणि सन्ति, इत्युक्ते 3997 इति। सम्पूर्ण अष्टाध्याय्याम् सामान्यतः प्रत्याहाराः, धातुपाठाः, गणपाठाः, उणादि सूत्राणि एतेषां विवेचनं वर्तते। सम्पूर्ण ग्रन्थे सूत्राणाम् आधारो अस्ति 14 प्रत्याहाराः। ते एवं सन्ति अ इ उण रि लिरिक् एयोङ् अयौच् हयवरट् लण् यमगणनम् झभय गडदश् जबगडदश् कप् छटत चटत कपय शशसर हल्।
महोदयाः, संवाद प्रभागस्य एतस्य अन्तिमे अंशे प्रश्नः यत् पाणिनेः पूर्ववर्ती परवर्ती आचार्याणां विषये किञ्चिद् बोधयन्तु।
अस्तु, पाणिनेः पूर्ववर्ती परवर्ती आचार्याणां विषये पाणिनी पूर्ववर्ती व्याकरणाः आसन्। आचार्य पाणिनिः स्व अष्टाध्याय्याम् अनेक आचार्याणाम् उल्लेखं कृतवान्, यथा आपिशलिः, काश्यपः, गार्ग्यः, गालवः, चाक्रवर्मणः, भरद्वाजः, शाकटायनः, शाकल्यः, सेनकः, स्फोटायनश्च। प्रायशः भवद्भिः श्रुतमपि अस्ति सूत्रम्, प्रमुखाः सन्ति एत। अत्र अष्टाध्यायीं यदि भवद्भिः पठितं तत्र प्रायशः भवन्तः पठितवन्तः अवङ्गस्फोटायनस्य इति,
अवङ्गस्फोटायनस्य
लोपः शाकल्यस्य इत्यादयः। एतेषां वैयाकरणानां कोऽपि स्वतन्त्रः व्याकरणग्रन्थः तु अद्य न प्राप्यते, परञ्च एतेषाम् आचार्याणां नामानि सादरम् अष्टाध्याय्याम् प्राप्यन्ते इति।
महोदयाः, अद्य व्याकरणशास्त्रम् अधिकृत्य भवतीभिः प्रतिपादितैः शास्त्रसम्मतवचोभिः वयम् अनुगृहीताः, धन्याः। आकाशवाणीपक्षतः भवतीभ्यः पौनःपुन्येन हार्दाः धन्यवादाः, सादरम् प्रणामाः, नमो नमः।
बहु धन्यवादाः सुरेशमहोदयाः।
साक्षात्कारः समेषां मनसि संस्कृतव्याकरणं प्रति अनुरागं जनयेदिति कामनाम् आदाय इदानीम् अग्रेसरामः संस्कृतदर्शनप्रभागं प्रति, यत्र अधिविश्वं संस्कृतप्रचाराय विधीयमानां गतविधिसन्दर्भख्यापकम् इदं संस्कृतमयं विवरणम् उपस्थापयति साधना शर्मा।
टिहरी जलविकासनिगमः संस्कृतविश्वविद्यालयश्च राष्ट्रियगौरवाय कार्यं सम्पादयिष्यतः। कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयाय शिक्षाशास्त्री संयुक्त प्रवेश परीक्षायाः प्रवेशपत्रं निर्गतम्। केन्द्रीय संस्कृत विश्वविद्यालयस्य गंगानाथ झा परिसरे एमए संस्कृत विषये प्रवेशेच्छुकाः छात्राः अस्य मासस्य 31 दिनांकं यावत् आवेदनं कर्तुं शक्नुवन्ति। वैश्विक संस्कृत मञ्चस्य दशम स्थापना दिवसस्य उपलक्ष्ये दिल्ली प्रान्तेन द्विदिवसीया ई संगोष्ठी जीवन मूल्य एवं जीवन कौशल विषये अनुष्ठिता। राधा माधव आदर्श संस्कृत महाविद्यालयः नाम्बोल मणिपुरः अनेन ज्योतिष गोल परिभाषाख्ये
ओरिएंटेशन कार्यक्रम संपाद्यते।
धीमन्तः श्रोतारः, बालाः अस्माकं राष्ट्रस्य संस्कृतभाषायाश्च समुन्नायकाः, तेषाम् अभिव्यक्तिरपि संस्कृतकार्यक्रमे महत्वाधायिनि। अद्य बालमनोवल्लरीति भागे संस्कृतबालकथा प्रस्तूयते। बालाः, अद्यतना कथा अस्ति अश्वस्य स्वामिनिष्ठा। मध्याह्नसमयः, सर्वत्र नीरवता, मार्गः अपि निर्मनुष्यः। तदा एव कोऽपि अश्वः मार्गे धावति, तस्य एकः पादः व्रणितः, सः कष्टेन वेदनां सहते, तथापि त्रिभिः पादैः यथा कथमपि सः धावति। तस्य पृष्ठे उपविष्टः अस्ति तस्य स्वामी, तस्य स्वामी शस्त्रप्रहारैः व्रणितः। अविरतं धावनेन अश्वः अतीव श्रान्तः जायते, सः वेगेन धावितुम् असमर्थः भवति, अतः मन्दं धावितुं प्रारभते, परं नैव विरमति सः। अधुना ग्रामः समीपे एव, तत्र स्वामिनं नयामि संरक्षयामि च। परं मार्गे विस्तीर्णः जलप्रवाहः, अधुना किं करणीयम् इति चिन्तयति अश्वः। क्षीणः व्रणितः च अश्वः तम् उल्लङ्घयितुम् असमर्थः, किन्तु समयः अल्पः, कथमपि प्राणान् अविगण्य सः जलप्रवाहम् उल्लङ्घयति, अपरतीरं गत्वा भूमौ पतति। आघातेन स्वामी अपि भूमौ निपतति। किञ्चित् कालानन्तरं स्वामी संज्ञां लभति, सः अश्वस्य समीपे आगच्छति, स्नेहेन अश्वस्य शरीरं स्पृशति। भूमौ पतितः अश्वः अपि स्वामिनं पश्यति, समाधानेन प्राणान् त्यजति च। कः एषः नृपः ज्ञायते वा? सः एव महाराणा प्रतापः, राजस्थानराज्यस्य मेवाड़प्रदेशस्य नृपश्रेष्ठः। कः एषः स्वामिभक्तः अश्वः? एषः चेतकः नाम अश्वः, अश्वेषु आदर्शभूतः सः। तस्य स्मृत्यर्थं निर्मितं समाधिस्थलं मेवाड़प्रान्ते विराजते। धन्यः स्वामी राणाप्रतापः, धन्यः च स्वामिभक्तः अश्वः चेतकः। मित्राणि, श्रुतः अस्माभिः चेतकस्य स्वामिनिष्ठ। अस्मासु एकत्वभावं भरति अस्मदीया सनातनसंस्कृतिः। भाषामाध्यमेनैव एकत्वद्वित्वादिव्यवहारान् आश्रयामो वयम्। सत्यपि भाषागतवैविध्ये कथं देशः एकत्वं समाधत्ते इति जानीमः अग्रिमे एकं भारतं श्रेष्ठं भारतम् इति प्रभागे, यत्र मुदिता वेतालः अद्य संस्कृत हिन्दी कुमाऊनी चेति भाषात्रयीम् अवलम्ब्य पञ्चवाक्यानि अस्मान् ज्ञापयति।
प्रथमं वाक्यमस्ति, भवती कुतः आगच्छति? पहला वाक्य है, आप कहां से आ रही हैं? कुमाऊनी में आफु कैति बे आमच्छा। द्वितीयं वाक्यमस्ति, अहम् वाराणसीतः आगच्छामि। दूसरा वाक्य है, मैं वाराणसी से आ रही हूँ। कुमाऊनी में मैं वाराणसी बे आमुयु। तृतीयं वाक्यमस्ति, कृपया वाराणसी यात्रायाः कानिचित् संस्मरणानि विज्ञापयतु। तीसरा वाक्य है, कृपया वाराणसी यात्रा के कुछ संस्मरण बताएं। कुमाऊनी में बनारस जय क्वे याद बतै दियो। चतुर्थं वाक्यमस्ति, काशी विश्वनाथ दर्शनम, गंगा स्नानम, बनारस हिंदू विश्वविद्यालयम च मह्यम सर्वाधिकानि दर्शनीयानि प्रतीतानि। चौथा वाक्य है, काशी विश्वनाथ दर्शन, गंगा स्नान व बनारस हिंदू विश्वविद्यालय मुझे सर्वाधिक दर्शनीय लगे। कुमाऊनी में काशी विश्वनाथ दर्शन, गंगा स्नान व बनारस हिंदू विश्वविद्यालय मैं की सबू है बेभल।
श्रोतारः, कार्यक्रमस्य अभिनवतायै भवतां प्रतिक्रियाः अस्मान् प्रेरयन्ति। कार्यक्रम सम्बद्धाः स्वीय प्रतिक्रियाः ईमेल माध्यमेन प्रेषयितुं निवेद्यन्ते भवन्तः। अस्माकं ईमेल संकेतो वर्तते nsdsanskrit@gmail.com इति। साम्प्रतं तु समागतास्ति अस्य अंकस्य अवसानवेला। आगामि सप्ताहे नवमेकं रंजकं अंकं आदाय यथानियतं पुनर्मिलामः। तावत् पर्यन्तं सर्वेभ्यः सादरं अभिवादनम्।